हिरण्यवर्णाः शुचयः पावकाया सुजातः कश्यपो यास्विन्द्रः अग्नीया गर्भन्दधिरे विरूपास्तान आपश्यग्स्यो नाभवन्तु यासागं राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् मधुश्चुतश्चुचयो याः पावकास्तान आपश्यग्स्यो नाभवन्तु या सा आं देवादिविकृण्वन्ति भक्ष्यं या अन्तरिक्षे बहुधा भवन्ति याः पृथिवीं पयसोन्दन्ति शुक्रास्तान आपश्यग्स्यो नाभवन्तु शिवेन मा चक्षुषा पश्यतापशिवया तनुवोपस्पृशतत्वचं मे सर्वागुम् अग्नीगुं रप्सुषदोहु वे वो मयि वर्चो बलमोजो निधत्ता पवमानः सुवर्जनः पवित्रेण विचर्षणिः यः पोता स पुनातु मा पुनन्तु मा देवजनाः पुनन्तु मनवो धिया पुनन्तु विश्व आयवः जातवेदः पवित्रवत् पवित्रेण पुनाहि मा शुक्रेण देवदीत्यत अग्ने क्रत्वा क्रतुगुम्रनु यत्ते पवित्रमर्चिषि अग्ने विततमन्तरा ब्रह्मतेन पुनीमहे उभाभ्या आं देवसवितः पवित्रेण सवेन च इदं ब्रह्म पुनीमहे वैश्वदेवी पुनति देव्यागात् यस्यै बह्वीस्तनुवो वीतपृष्ठाः तया मदन्तः सदमाद्येषु वयग्स्यामपतयोरयीणाम् वैश्वानरो रश्मिभिर्मा पुनातु वातः प्राणेने शिरोमयो भूः ध्यावा पृथिवीपयसापयोभिः रतावरीयज्ञिये मा पुनीताम् बृहद्भिः सवितस्त्रभिः वरशिष्ठैर्देवमन्मभिः अग्ने दक्षैः पुनाहि मा येन देवा अपुनता येनापो दिव्यङ्कषः तेन दिव्येन ब्रह्मणा इदं ब्रह्म पुनीमहे यः पावमानीरत्येति ऋषिभिः संमृतगुम्रसम् सर्वगुं सपूतमश्नाति स्वदितं मातरिश्वना पावमानीर्यो अध्येति ऋषिभिः संमृतगुम्रसम् तस्मै सरस्वती दुहे क्षीरगं सर्पिर्मधोदकम् पावमानी स्वस्त्ययनीः सुदुगाहि पयस्वतीः ऋषिभिः संभृतो रसः ब्राह्मणेष्वमृतगुं हितम् पावमानीर्दिशन्तु नः इमं लोकमतो अमुम् कामान् समर्थयन्तु नः देवीर्देवैः समाभृताः पावमानी स्वस्त्ययनीः सुदुघाहि कृतश्च्युतः ऋषिभिः संमृतो रसः ब्राह्मणेष्वमृतगुं हितम् येन देवाः पवित्रेण आत्मानं पुनते सदा तेन सहस्रधारेण पावमान्यः पुनन्तु मा प्राजापत्यं पवित्रम् शतोध्यामगं हिरण्मयम् तेन ब्रह्मविदो वयम् पूतं ब्रह्मपुनीमहे इन्द्रः सुनीति सह मा पुनातु सोमस्वस्त्या वरुणः समीच्याः यमो राजा आप्रमृणाभिः पुनातु मा जातवेदा मोर्जयन्त्या पुनातु भूर्भुवः सुवः तच्छञ्योरावृणीमहे गातुञ्यज्ञाय गातुञ्यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्ति।